एकावृता आपणे पचन्ति आसीत् पूपानि, एकः काकः आगत्य पूपमेकं स्वीकृतवान्। वृक्षाग्रे उपविश्य पूपं खादितुमारब्धवान्। शृगालमेकः तं दृष्ट्वा वञ्चयितुं चिन्तितवान्। सुन्दरकाका गायतु रे, मधुरवाणीं श्रावय रे। काकः गीतवान् काकाका, मुखात् पतितं प्रियपूपं। वृद्धय उक्तं पूपगतं, पतितं पूपं स्वीकृत्य शृगालः वेगेन धावितवान्। पुरातनकाकः एषः स्यात्, अधुना काकः चतुरोऽस्ति। पूपं पादाभ्यं गृहीत्वा गीतवन् काका काका का।